नमस्सर्वेभ्यः अद्य परमलघुमञ्जूषायाः अष्टादशः पाठः जुलै मासस्य पञ्चमः दिनाङ्कः अद्य वयं धात्वर्थविषये दर्शनान्तरस्य मतं मीमांसकाः किं वदन्ति नैयायिकाः च किं वदन्ति इति पश्यामः आदौ मङ्गलम् येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते। गतवर्गे धात्वर्थविषये वैयाकरणानां सिद्धान्तः अधीतः। तत्र फलव्यापारौ धात्वर्थः कर्तृकर्मसङ्ख्याकालाः तिङर्थाः इति सिद्धान्तः। फलं तदनुकूलव्यापारश्च धात्वर्थः। कर्त अथवा कर्म, कर्तरिप्रयोगे कर्ता, कर्मणि प्रयोगे कर्म, सङ्ख्या कालश्च तिङ्प्रत्ययेन उच्यते। व्यापारमुख्यविशेषकः शब्दबोधः भवति तिङन्तस्थले। तत्र फलं कर्ता कालश्च साक्षाद् व्यापारे विशेषणं भवति। संख्या कर्तरिप्रयोगे कर्तुः विशेषणं, कर्मणि प्रयोगे कर्मणो विशेषणं भवति। कर्म फले विशेषणं भवति इति पदार्थानां परस्परसम्बन्धः दृष्टः। धातुः प्रत्ययः, धातुना फलं व्यापारश्च बोध्यते, प्रत्ययेन कर्तृकर्मसङ्ख्याकालाः बोध्यन्ते। व्यापारः प्रधानम्, फलं व्यापारे अन्वेति अनुकूलत्वसम्बन्धेन विक्लिप्तिः तदनुकूलः व्यापारः, उत्तरदेशसंयोगः फलं तदनुकूलः व्यापारः इत्येवं। कर्ता व्यापारे अन्वेति कर्त्राश्रयः व्यापारः, अर्थात् व्यापारः कर्तरि भवति, अतः कर्ता एव व्यापारस्य आश्रयः। कर्ता व्यापारे विशेषणत्वेन अन्वेति, कर्म फले विशेषणत्वेन अन्वेति। यथा वृक्षाश्रया वृक्षाश्रयं छेदनं, तण्डुलाश्रया विक्लिप्तिः। सो फलं सर्वदा कर्मणि दृश्यते, अतः कर्म एव फलस्य आश्रयः, फलस्य विशेषणत्वेन भासते शब्दबोधे। संख्या कर्तरि अथवा कर्मणि प्रयोगम् अनुसृत्य, कालः व्यापारे विशेषणम् इत्येवं ज्ञात्वा अनेन क्रमेण व्याकरणमते कथं शब्दबोधः भवति इत्यत्र उदाहरणानि दृष्टवन्तः। तत्र कश्चन अभ्यासोऽपि दत्तः, अभ्यासं कुर्मः। सो वी विल् जस्ट् गो थ्रू दोस् सेण्टेन्सस्। डस् एनिबडी वाण्ट् टु टेल्? प्रयत्नं कर्तुमिच्छन्ति? शिवराम कुलकर्णी, न श्रूयते। Cannot hear you. Is your microphone working fine?
Who are you asking?
Shivaram Kulkarni. I think I unmuted him, but cannot hear him. So maybe... You can try, Paul.
Okay, you can hear me then?
Yeah.
Okay, so, well, I kind of broke it down, and then you want just the final sentence?
No, we'll go it step by step.
Okay, so I have a hum sakani pachami. And so pachami is Viklittihi phalam, vyaparaha, mat abhinnaha ahamkarta, ekatva sankhya, and vartamana kalaha.
Right.
And then vyaparaha, viklittihi Vakyanukulaha.
The other words, we have to see all the words first. So,
okay.
Thing is, we take what are the meanings from all the words and then read.
I remember.
Yeah.
Yeah, I'm just confused. Okay. So, shakani, shaka binna karma.
Oh, yes.
Bahutva sankhya. And then aham abhinnaha.
Madabhinnaha. So, these are the meanings which are presented by each of the words, right? So, the word pachami gives you all these five meanings. The word shakani in dvitiya vibhakti, it tells you that shaka is the karma, and because of the bahuvachana pratyaya, it also tells you that the karma is plural. And aham, the prathamanta word, does not tell anything other than just the meaning of that, that is pratipadika artha. Aham is the karta, but the fact that aham is the karta is given by the thing pratyaya and not by the prathamanta. That is according to the vayakaranas. Okay, so once we have all these meanings, how do we relate these to each other to get that single related meaning? Yes, Paul.
So then, breaking up the vyaparaha, we have the krityanukulaha and madabhinnaha kartrashrayaha with the subdivision of ekatva sankhya vachinna. And then vartamana kalikaha.
So to viklitti, we have the karma. We have to relate the viklitti is the phala. So we have to relate the karma to viklitti. So
then,
shaka bhinna karma shraya viklitti. Right, so because the karma relates itself to the phala. So it is in the shaka, in the vegetables, that we see the phala, the resultant of cooking.
Right.
And the bahutva sankhya on the dvitiya vibhakti, it relates to the shaka. So we have three levels there. So bahutva sankhya vachinna shaka bhinna karma shraya ya viklittihi. Tadanukulaha vyaparaha. That is the first visheshana for vyapara. So the next ones are what you told. As I said, madabhinna kartrashrayaha. And the karta is qualified by the sankhya. So ekatva sankhya vachinna madabhinna kartrashrayaha vyaparaha. And vartamana kalikaha vyaparaha. And so three qualifications directly to vyapara. Phala, karta and kala. Sankhya on the thing pratyaya goes to the karta, the karma goes to the phala, and the sankhya on the dvitiya vibhakti goes to the karma. Okay. So they're just, it's logical. So the final shabda bodha is, bahutva sankhya vachinna shaka bhinna karma shraya ya viklittihi tadanukulaha vyaparaha. Punashcha kidrishaha ekatva sankhya vachinna madabhinna kartrashrayaha vyaparaha. Punashta vartamana kalikaha vyaparaha. So vyapara is qualified directly by three things. So each of them have the respective qualifications. Bahutva sankhya vachinna shaka bhinna karmashraya ya viklittihi tadanukulaha ekatva sankhya vachinna madabhinna kartrashraya vartamana kalikaha vyaparaha iti asya vakyasya shabda bodhaha. Okay.
Right, and that's what I had at the end. That
yes.
With the only vyaparaha once at the end.
Yes.
Okay.
Yeah.
Okay.
So next one, maybe we can.
Thank you.
Anybody else want to try the next one? Maya shakani pachyante. Shivaram Kulkarni. Somehow we are not able to hear you, Shivaram Kulkarni Mahodaya. Na shruyate. Maybe the microphone is not working. Cannot hear you, sorry. Yes, Bhanu Prakash Mahodaya. Yes.
I have not broken it out. I made a rough notes on it, but I don't have the notes with me right
now. No problem, no problem. You can just tell the final one.
Ekatva sankhya vachinna. Madhya chaprasraya. Bhutva sankhya vachinna. Sakabhinna karmasraya yad vikliti anukulaha.
Karmasraya ya viklitihi tadanukulaha. We have to split it at Viklitti because the karma goes only to Viklitti, not to the Vyapara. So that's the only thing. I mean, I saw your the one which you did, which you had sent. So that was the only thing my comment was. You have to break it at Phala because the karma is relating only to the Phala and not to the Vyapara. If you say Viklitti Anukulaha, it will go till Vyapara. So you want to stop it at Phala. So Bahutva Sankhya Vachinna Shaka Bhinna Karmashraya Yaviklittihi.
Tadanukulaha Vartamanakalikaha Vyaparaha.
Tadanukulaha Vartamanakalikaha Vyaparaha. Correct. So as you can see, there is, if we look at the breakup of this, Dhanyavadaha.
For 1 minute. You say sometimes Yaha, sometimes Yad and sometimes Ya. Is it for the Linga there?
Yeah, the linga of the phala. Right? So viklitti is trilinga. So karmashraya ya viklittihi. So if it would be something like uttaradesha sanyogaha, so say grihashrayaha yaha uttaradesha sanyogaha, tadanakulaha vyaparaha. Vyapara is always pullinga, but the phala will vary. So if it is say something like bhasmi bhavanam, then it will be yak, napumsakalinga. So it depends on the linga of the phala.
Thank you, ma'am.
Yeah. So, pachyante iti ting pratyayena viklitti rupam phalam uchyate vyaparaha. Karma, ayam karmani prayogaha, ataha karma uchyate. Bahutva sankhya uchyate. So, the sankhya relates to the karma because it is karmani prayoga. Vartamana kalopi uchyate. Shakani iti idaniyam prathama vibhakti. Right? Purva maya aham shakani pachyami ityatra shakani iti dvitiya vibhakti. Maya shakani pachyante ityatra shakani iti prathama vibhakti. Tena shakabhinnam ityeva arthaha. Shakarupam pratipadikarthaha. Shakarupaha pratipadikarthaha eva uchyate nanyat kimapi. So the fact that shaka is a karma is given by the tinganta. So the prathamanta will just tell you shaka. Vegetable, nothing else, no more information on what it is. Maya iti tritiya vibhakti hi, tritiya vibhaktiya karta uchyate, madabhinnaha karta iti, ekatva sankhya api pratyayena uchyate. So, ete arthaha samupasthitaha, ete sham paraspara anvayastu, vyaparaha viklitti hi, shakabhinna karmashraya viklitti hi, Bahutva sankhya avachinna shaka abhinna karmashraya viklittihi. Madabhinna kartrashraya ha. Ekatva sankhya avachinna madabhinna kartrashraya ha. Vartamana kalikaha. Evancha bahutva sankhya avachinna shaka abhinna karmashraya ya viklittihi. Tadanukulaha. Ekatva sankhya avachinna madabhinna kartrashraya ha. Vartamana kalikaha vyaparaha iti shabdabodha. So what did we note from these two examples? Kim nyayate? Any observations from these two?
There is no difference in the Shabda Vada.
Exactly.
Whether you use Karmani Prayoga.
Exactly. So the final Shabda Bodha is not varying because even though teva arthaha bhinnena padarthena bhinnena padena upasthapyante. Say for example the fact in the first aham shakani pachami ityatra karma rupaha arthaha dvitiya vibhaktyantena padena upasthapyate. Maya shakani pachyante ityatra tu ting pratyayena karma rupaha arthaha upasthapyate. Kartari prayoge ting pratyayena karta upasthapyate, karmani prayoge tritiyanta padena karta upasthapyate. Ityevam padanam arthaha vidyante. Okay, so what is the meaning of different padas varies. But when they come together to associate themselves as a whole, it is still the same meaning that you are getting. Atayeva shabda bodhaha, the final shabda bodhaha, samanaha, prachina vayakaranaan mate. Remember this, that this is what is accepted in the Dikshita school. Okay. As we are going to study by Nagesha, Nagesha makes a difference between the Kartari Prayoga and Karmani Prayoga. According to him, Kartari Prayoga vyaparasya pradhanyam, Karmani Prayoga phalasya pradhanyam. Iti Nageshasya matam. Kintu Bhattodi Dikshitanam mate, Kaunda Bhattasya mate, Bhushana Sara anugunam, Ubhayatra sarvatra tingantasthale vyapara mukhya visheshyakaha, shabda bodhaha ityeva uchyate. Evam sati Kartari Prayoga, Karmani Prayoga cha samanaha shabda bodhaha bhavati. Okay, so there will not be difference because the way they are relating the padarthas to each other are still the same. Okay. And anubhavashaha api tadeva bhasade. I mean, the final meaning that we get, whether I eat the vegetables or the vegetables are eaten by me. So, because it is the same karta, same karma, and the same relation between them. Ityarthaha. So, tritiyam gacchamaha. Tvam shalam gacchasi. Ityasti. So, दुरदृष्टवशात् शिवराम कुलकर्णी महोदयस्य ध्वनिः न श्रूयते तेन सर्वमपि कृतम् इति उच्यते किन्तु यस् भानुप्रकाश जी
उमेश जी आई वन क्वेश्चन द टाइम गैप सौभी कारा एंड नागेश इज ओनली मैटर 50-60 इयर्स
यस
So, by the time the Navya Vyakarana has already come by Siddhanta
Kumbhasa. In Vyakarana, there is no such, I mean, the Nayayikas have a very distinct schools as Prachina and Navya. Okay. So, in Vyakarana, we don't have that. I mean, according to, for some purposes, Bhattodhi Dikshita himself is Navya. And for some cases, Nagesha. So what I mean is, I mean, Nagesha is the more recent and Nagesha differs in many of these significantly from Dikshita. So the difference between, I mean, the major difference among Vayakaranas would be between the opinions of Bhattodhi Dikshita and that of Nagesha. Okay. So among those two, Nagesha was more recent. So we take him as Navya and he refers to the earlier ones as Purve or Pranchaha, etc. That's all. So that difference between the Prachina school and the Navya school, which is very, very strong or clear in case of the Nyaya, is not there in Vyakarana. And the Navya is not even a school, it is basically Nagesha. What he thinks. But because he was a very prolific thinker and a writer, we have several cases where he offers opinions differing from that of Bhattodhi Dikshita or the earlier ones. Yes.
Shall I read out the answer for the third question, ma'am?
Yes, please. Sure.
Tvam shalam gacchasi. Ekatva sankhya vachinna. Vachinna katrasrayaha.
Shala. Yes.
Shalamena karmasrayaha. Uttara desha samyogaha tadanukulaha vartamanakaha vyaparaha.
Samyak. So we have the gacchasi iti kriyapadena. I think, I mean, you all know this. I'll send the slides. So phalam vyaparaha karta ekata sankhya vartamanakalascha tingantena shalam iti dvitiyantena karma ekata sankhya Tvam iti prathamantam, tesham paraspara sambandhe, ekatva sankhya vachinna shala bhinna karmashrayaha yaha uttara desha sanyogaha, tadanukulaha, ekatva sankhya vachinna tvada bhinna kartrashrayaha vartamanakalikaha vyaparaha iti shabda bodhaha phalati.
How many question here?
Ah.
Why do you put that hyphen there? What is the importance of the hyphen there?
Nothing. It's just for clarity in reading. It's easier to read so that the reference. There is no, absolutely no this that you should put or not that. I mean, generally when there are long samasas, during teaching I tend to put the hyphen to make the this one clear. Okay. So,
okay.
That's all. So, it's just to show that there are three separate parts in that. That's all. No other significance. We could So, all the examples given were very similar, right? I mean, everything is. So, simhaha mrigan khadati. So, by the time if we keep practicing, we can just looking at this, you should be able to give the shabda bodha. Say, bahutva sankhya vachinna mrigabhinna karmashrayaha yaha galabiladhas sanyogaha taranukulaha vartamanakalikaha ekatva sankhya vachinna simhabhinna kartrashrayaha vyaparaha ityevam shabda bodhaha phalati. Okay, so it is just the same. So, bahutva sankhyavachinna mrigabhinna karmashrayaha yaha galabiladha sanyogaha tadeva phalam tadanukulaha ekatva sankhyavachinna simhabhinna kartrashrayaha vartamanakalikaha vyaparaha ityevam shabdavodhaha bhavati. Antimam vakyamasti janaihi vastrani dahyante. So atrapi dahyante iti karmani prayogaha bhasmi bhavanam phalam vyaparaha karma bahutva sankhya vartamana kalascha tingantena uchyate vastrani iti prathamantena pratipadikarthaha eva jnayate janaihi iti tritiyantena janabhinnaha karta tacha bahutva sankhya avachinnaha iti jnayate. Evancha paraspara sambandhe bahutva sankhyavachinna vastrabhinna karmashrayam yadbhasmi bhavanam tadanukulaha bahutva sankhyavachinna janabhinna kartrashrayaha vartamanakalikaha vyaparaha ityevam shabdabodhaha bhavati. So we have done the shabdabodhas according to the Dikshitar school of Vyakaranas, where Ubhayatra kartari prayoge karmani prayoge ubhayatra api vyapara mukhya visheshakah shabda bodhah bhavati.
Okay. One question, if you don't mind.
Uh-huh.
Here when we are using the karmani prayoga,
mm-hmm.
to always select the verb that are in the form that are given in the thing and thing at us, the dhatupata. In dhatupata we have ubhayapadi, paranchupadi and atmayapadi.
Hmm.
Take the karmani prayoga, should we always refer to atme pada only, padme forms only? Do we have karmani prayoga using parasmaipadi?
No, I mean all dhatus, irrespective of whether they are parasmaipadins, atmanepadins or ubhayapadins, all dhatus in the passive voice, bhava karmanoho atmanepadameva. So in bhave prayoga or karmani prayoga, there is no difference between the pada. I mean all dhatus will compulsorily take atmanepada. So the difference is only in the kartari prayoga.
So if I have a that is only a parasmaipadi form,
whatever,
can I use
you
karmani
have
form?
To, yes, you can. You have to use atmanepada for it. Say dahyante, dahati. Dahati is this one, or patati. Patati is parasmaipadi, but the passive form is patyate. Itteva. You can use all dhatus in bhave karmani. And for all dhatus, we use atmanepada in bhave karmani. It is only in the kartari prayoga that the parasmaipada, this one itself, sutram eva vadati. Sheshat kartari parasmaipadam. Kartari prayoge eva parasmaipadam bhavati. Natu anyatra kutrapi.
Yes.
So any dhatu in bhave prayoga and karmani prayoga, atmanepadam eva, atmanepada pratyayaha eva bhavanti. Sutrameva asti bhava karmanoho atmane padam bhavati. Astu idanim vayakaranam siddhantah jnatah. So nageshat purvah kah vayakarana siddhantah yatha maya uktam mimamsa shastre nyaya shastre cha asmin vishaye vicharah pravartitah shabda bodhasya vishaye kasmat shabdat korthaha pratipadyate iti vishaye. तत्र मीमांसकानां किं मतम् इति किञ्चित् पश्यामः. मीमांसकमते फलमात्रं धात्वर्थः. वैयाकरणैः फलं व्यापारश्च धात्वर्थः इत्युच्यते. मीमांसकास्तु फलमात्रं धात्वर्थः इति वदन्ति. भावना तेषां ते व्यापारः इति न वदन्ति. भावना इति मीमांसकानां पारिभाषिकं पदम्. सो भावना इस् वर्ड् दे यूस् इन् प्लेस् आफ् व्यापार. भावना आख्यातार्थः. आख्यातार्थः नाम तिङ् प्रत्ययस्य अर्थः इति मीमांसकानां मतम्. तत्रापि लिङ्लकारे एव भावनायाः प्रतीतिः भवति. तत्रापि तिङ् प्रत्ययेन ज्ञायते भावना, न तु धातुना. तर्हि पचति इति तिङन्तस्य कः अर्थः? विक्लित्यनुकूला भावना इत्येव अर्थः. अस्मन्मते पचति इत्युक्ते तिङ्प्रत्ययेन कर्ता उच्यते. पच् इति धातुना एव विक्लित्यनुकूलः व्यापारः बोध्यते इति वैयाकरणमतम्. मीमांसकमते विक्लित्यनुकूला भावना इत्यर्थः पचति इति तिङन्तेन उच्यते. सो द तिङ् द धातु एक्स्प्रेसेस् ओन्ली द फल एण्ड् द प्रत्यय एक्स्प्रेसेस् भावना पर्टिक्युलर्ली इन् लिङ्लकार. सो वि विल् सीन् द फैनर् पायिण्ट्स् लेटर्. सामान्यतः फलं धात्वर्थः, भावना प्रत्ययार्थः. तर्हि कर्तुः प्रतीतिः कथं भवति? सो कर्तुः प्रतीतिस्तु भवति. वि डू नो द कर्ता. किन्तु कर्ता शब्दार्थः न इति मीमांसकाः. दे से इट् इस् नाट् डिरेक्ट्ली अ मीनिङ्ग् आफ् द वर्ड्. आक्षेपात् लक्षणया वा कर्तुः प्रतीतिः भवति इति. सो तेषां मध्ये अपि मतभेदाः सन्ति. सो सम् आफ् द मीमांसका से इट् इस् आक्षेप, सम् से इट् इस् लक्षण. आक्षेपः नाम येन विना यदनुपपन्नं तत्तेन आक्षिप्यते. सो दट् विथौट् विच् सम्थिङ्ग् डस् नाट् हेव् एन् एक्सिस्टेन्स्. सो विल् से विल् नेसेसरिली इम्प्लै द प्रेसेन्स् आफ् दट्. Okay, say for example there is bhavana. Bhavana is action. So there cannot be an action without the karta. So being such, the presence of action bhavana implies that there is a karta. So that is akshepa. Yena vina yad anupapannam tattena akshipyate. Ataha kartuhu pratitihi bhavati kintu shabdatah na. No word, that is neither the dhatu nor the pratyaya directly expresses the meaning of karta. However, since bhavana is given by the pratyaya, and since bhavana cannot exist without karta, we assume that there is a karta. Atah akshepat kartuhu pratitihi bhavati. Athava lakshyarthaha. So we studied shakti and lakshana. So shakyarthaha bhavana tat sambandhaha. Shakya sambandhaha lakshana. Right? So bhavana sambandhaha karta lakshanaya pratiyate iti. केचन मीमांसकाः वदन्ति. सो मीमांसकानां मते कर्तुः प्रतीतिः आक्षेपात् भवति अथवा लक्षणया भवति. कालः संख्या तु प्रत्ययेन ज्ञायते. तत्र कस्यापि विप्रतिपत्तिः नास्ति. नोबडी विल् डिबेट् दट् वर्तमानकाल एण्ड् से सिङ्ग्युलर् आर् प्लूरल्. द संख्या इस् गिवन् बै द प्रत्यय. सो भेदः अस्ति अत्र. सो फलं व्यापारः कर्ता केन बोध्यते? व्याकरणमते फलव्यापारौ धातुना बोध्यन्ते, कर्ता प्रत्ययेन बोध्यते. मीमांसकमते फलमात्रं धातुना बोध्यते, भावना प्रत्ययेन बोध्यते, कर्ता आक्षेपा लक्षणया वा भवति इति. पुनश्च भावनामुख्यविशेषकः शाब्दबोधः मीमांसकसम्मतः. सो द फैनल् शाब्दबोध इस् सिमिलर् टु वैयाकरणस् इन् दट् दे आल्सो एक्सेप्ट् भावना एस् प्रधान. सो एतत् पश्यामः. धातुः अस्ति प्रत्ययः. धातुना फलम् एव बोध्यते. भावना, संख्या, कालः इत्येते त्रयः प्रत्ययेन बोध्यन्ते. आक्षेपात् कर्ता भवति. एस् यु केन् सी, कर्ता इस् नाट् अ शब्दार्थ. इट् इस् नाट् गिवन् ईदर् बै द धातु नार् बै द प्रत्यय. भावनया आक्षेपात् लक्षणया वा कर्ता प्रतीयते. तत्र भावना प्रधानम्. आख्यातार्थभावनायाः प्राधान्यं मीमांसकैः प्रतिपाद्यते. फलं भावनायां विशेषणं, karta bhavanayam, sankhya kartari, kalaha bhavanayam. So the relationships are similar. Okay. So the only difference is, instead of gaining the vyapara from the dhatu, we are getting it from the pratyaya. And instead of getting karta from the pratyaya, we are getting by akshepa or lakshana. Okay. Kartari prayoge, karmani prayoge, karma api tathaiva bhavati. Okay. So they are more concerned with the kartari prayoga. So evam paraspara sambandhaha samanaha. The final shabda bodha will also be very similar. Katham bhavati mimamsa kamate shabda bodha. Pachami iti svikurmaha. So tatra viklitti rupam phalam dhatuna bodhyate. Bhavana pratyena bodhyate. Madabhinnaha karta iti akshepena labhyate. So by the word you are not getting directly. Akshepena labhyate. Ekatva sankhya pratyena jnayate. Vartamana kalopi pratyena jnayate. Tatra bhavana pradhanam. So where like we say vyaparaha, they say bhavana. Kidrishi bhavana, viklitti janika bhavana. So bhavana which generates viklitti. Okay. Taihi sakshat janakatva sambandhaha angi kriyate. So we phrase it as anukulatva sambandhaha. So we will see there is not much difference. So viklitti janika bhavana. Madabhinna kartrashrayika bhavana. So the karta also relates to the bhavana. Sankhya relates to the karta. So ekatva sankhya vachinna madabhinna kartrashrayika viklitti janika bhavana. Vartamanakaliki bhavana. Ityevam chabdabodha katham viklitti janika ekatva sankhya vachinna madabhinna kartrashrayika vartamanakaliki bhavana. Iti shabdabodha. There is no difference in shabda bodha, actually no difference as in ubhaya tatra api vyaparaha pradhanam bhavana pradhana paraspara sambandhaha api samanaha. Okay. So the only difference is in their insistence that bhavana comes from the pratyaya and not from the dhatu. Okay. So ayam idam mimamsakanam matam evam anyanam anyesham vakyanam api shabda bodha vaktum shakyate. So shakani pachami aham shakani pachami ityukte bahutta sankhya vachinna shaka bhinna karta karmashaya ya viklittihi tadjanika ekatva sankhya vachinna madabhinna kartrashrayika vartamana kaliki bhavana. So the karma will again relate to the phala and so on. So there will not be much of a difference in this shabda bodha. Okay. Idam mimamsakanam matam nayayikaah kim vadanti ityapi pashyamaha phalam vyaparashta dhatvartha iti navyanayayikaah. So nayayikeshu punaha prachina nayayikaah navyanayayikaah iti santi. Prachina nayayikanam mate phalam dhatvartha phalamatram dhatvartha vyaparaha athava kritihi tatra akhyatartha iti vadanti kintu navyanayayikanam mate. So they have revised their own this. So navyanayayikanam mate phalam vyaparaha dhatvartha akhyatartha kritihi. And what is the pratyayartha? They say is kriti. What is kriti? Chetana nishtaha vyaparaha kritihi athava kartratvam. See, action is of two kinds. One is a physical movement, like say gachati. You have to physically move your legs to go. Okay, that is vyapara. Whereas the intent to move, so the physical movement does not happen without an intention in the self to move. Okay, that one, the chetana nishtaha athava atmanishtaha vyaparaha. So there is something in the self which helps it to take action. Okay? So that they call it by a separate term as kriti or yatna. Kritihi athava yatnaha iti vyapara dhinnaha taihi pratipadyate. For us, for vayakaranas, vyapara includes everything. It includes both physical movement as well as the internal desire or the sankalpa, kriti, yatna. Everything is covered by vyapara. But nayayikas maintain a distinction between vyapara and kriti. Tanmate vyaparaha ityukte హస్తపాద చలనాదికమేవ వ్యాపారః చేతనానిష్ఠః అథవా ఆత్మనిష్ఠః యః వ్యాపారః సః కృతిః ఇత్యుచ్యతే. సా కృతిః ప్రత్యయస్య అర్థః ఇతి నైయాయికాః వదంతి. కృతిః సంఖ్యా కాలశ్చ తింగర్థః. తర్హి కర్తా కథం బోధ్యతే ఇతి చేత కర్తా ప్రథమాంత పదాత్ లభ్యతే ఇతి నైయాయికాః. కర్తరి ప్రయోగే కర్తా, కర్మణి ప్రయోగే కర్మ ప్రథమాంత పదాత్ లభ్యతే. సో దే అక్సెప్ట్ దట్ ద ప్రథమా విభక్తి ఎక్స్ప్రెసెస్ కర్తా ఆర్ కర్మ. ఓకే, సో దట్ ఈస్ వన్ మేజర్ డిఫరెన్స్ బిట్వీన్ యునో ద వైయాకరణస్ అండ్ నైయాయికస్. దే సే పచతి ఇత్యుక్తే కర్తుః భానమేవ నాస్తి. యు హ్యావ్ టు టేక్ ద అధ్యాహార ఆఫ్ సమ్ ప్రథమాంత పద. ప్రథమాంత పదం వినా కర్తుః ప్రతీతిః నాస్త్యేవ ఇతి తేషాం మతం. అపి చ ప్రథమాంత ముఖ్య విశేషకః శబ్దబోధః నైయాయిక సమ్మతః. సో దే సే ఇన్ ద వాక్య ఇట్ ఇస్ ద ప్రథమాంత పద విచ్ ఇస్ ప్రధాన, దట్ ఇస్ కర్త ఆర్ కర్మ విచ్ ఇస్ ప్రధాన రాదర్ దాన్ ద వ్యాపార. వ్యాపారః విశేషణత్వేన ప్రకారత్వేన ఏవ భాసతే నతు విశేష్యత్వేన ఇతి తన్మతం. తర్హి కథం భవతి? సో సిగ్నిఫికెంట్ డిఫరెన్స్ బిట్వీన్ ద మతస్. సో ధాతుః అస్తి, ప్రత్యయః అస్తి, ప్రథమాంత పదమపి అస్తి. సో సర్వత్ర భవత్యేవ అథవా అధ్యాహర్తవ్యం ప్రథమాంత పదం. తత్ర ధాతునా ఫలం వ్యాపారశ్చ బోధ్యతే. ప్రత్యయేన కృతిః సంఖ్యా కాలః బోధ్యతే. కర్త ప్రథమాంత పదాత్ బోధ్యతే ఇది నైయాయికాః. తత్ర కర్తుః ప్రాధాన్యం నతు వ్యాపారస్య నవా కృతేః. ఓకే, సో హౌ ఇస్ ద పరస్పర సంబంధ? ఫల రిలేట్స్ టు వ్యాపార, ఫలానుకూల వ్యాపార. వ్యాపార రిలేట్స్ టు కృతి, తదనుకూల కృతి. సో ఫార్ ద రిజల్టెంట్ యు హ్యావ్ ద యాక్షన్, ఫిజికల్ యాక్షన్. ఫార్ ద ఫిజికల్ యాక్షన్ యు హ్యావ్ ద ఇంటర్నల్ యాక్షన్ ఇన్ ద సెల్ఫ్. ఓకే, అత ఫలం వ్యాపారే వ్యాపార కృతౌ కృతి కర్తరి అన్వేతి. కాల అపి కృతౌ అన్వేతి. దిస్ ఇస్ ద కృతి విచ్ రిలేట్స్ టు ద కర్త. ఓకే, సో వర్తమాన కాలికీ కృతి. సో ఇఫ్ యు యూజ్ సంథింగ్ లైక్ అహం పచామి, సో విక్లిత్యనుకూల వ్యాపారానుకూల కృతి. ఓకే, కృతిమాన్ చైత్ర ఇతి కృతే కర్తరి అన్వయ, సంఖ్యాయాః అపి కర్తరి అన్వయ. ఎస్ భానుప్రకాష్.
అమేజీ, సో ఇన్ ది నైయాయిక మత కృతి ఇస్ ఎడిషన్ రెగ్యులర్ అండర్స్టాండింగ్. వి హావ్ ఓన్లీ ఫోర్ కాంపోనెంట్స్. నౌ వి హావ్ ఫైవ్ కాంపోనెంట్స్.
Yes, we have the vyapara split into two kinds. One is vyapara and the other is kriti.
And finally the karta is related, that kriti is related to the karta.
Yes.
Not the vyapara. That is the only difference here. In addition to the pradhamanta pada.
Yes. So, pradhamanta padat karta bodhyate, kartuhu eva pradhanyam. Vyapara ha dvividha. So, sharira nishtha vyapara ha, chetana nishtha kritihi. ఇత్యేవం వ్యాపార కృత్యోః భేదః ప్రతిపాద్యతే. సో కృతిః కర్తరి అన్వేతి. సో కృత్యాశ్రయః కర్త, ద కృతి ఆల్వేస్ రిసైడ్స్ ఇన్ ద కర్త. అండ్ సంఖ్య
విజిబుల్ ఫ్రమ్ ది ఆఖ్యాత. ఇట్ ఇస్ నాట్ అధ్యాహార.
నో, ఇట్ ఇస్ నాట్. ఇట్ ఇస్ డైరెక్ట్లీ గివన్ బై ద ఆఖ్యాత. ఇట్ ఇస్ ద శబ్దార్థ శక్యార్థ ఆఫ్ థింగ్ ప్రత్యయ.
థ్యాంక్ యూ మ్యామ్.
Yes.
పత్రాని పతంతి తస్మిన్ వాక్యే
సత్యం.
చేతనాని కృతేః సమాధానం తే కథం క్రియతే.
క్రియతే తదేవ రథో గచ్చతి ఇత్యపి అస్తి అగ్రే పఠామః గ్రంథే ఏవ. సో దట్ ఇస్ వన్ ఆఫ్ ద ఆబ్జెక్షన్స్ విచ్ ఇస్ లెవెల్డ్ వై వైయాకరణస్ అగేన్స్ట్ నైయాయిక. తదేవ ఉచ్యతే కథం తత్ర తాదృశస్థలేషు యత్ర కృతిః నాస్తి ఇత్యుక్తే అచేతనః కర్తా యత్ర భవతి తత్ర కృతేః అభావే తైః లక్షణా స్వీక్రియతే. नास्ति चेतनानिष्ठः व्यापारः इति कारणेन व्यापारस्यैव कर्तरि अन्वयः क्रियते. तैः कर्तव्यं, किन्तु सामान्यतः कृतिः अस्त्येव इति तेषां मतम्. सः आक्षेपः वैयाकरणानाम् अस्त्येव. यत्र अचेतनः कर्ता भवति तत्र कृतेरेव अभावात् तत्र तैः लक्षणा आश्रयितव्या भवति. तदपेक्षया सर्वोऽपि व्यापारः धात्वर्थः इत्येव अङ्गीक्रियताम् इत्येव वैयाकरणानां वादः. सो वि विल् सी दट् पुनः ग्रन्थपठने भवति निश्चयेन तत्. सो इट् इस् वन् आफ् द आक्षेपस् अगेन्स्ट् द नैयायिकस्, बिकास् एस् सून् एस् यु से दट् कृति इस् देर् एण्ड् इट् इस् कम्पल्सरी, सो अ केस् एस् यु सेट् पत्राणि पतन्ति आर् फलं पतति आर् रथः गच्छति, नास्ति तत्र कृतिः, कथं समाधानम् इति तैः समाधीयते. पश्यामः अग्रे पश्यामः. सो वि विल् ट्रै टु अण्डर्स्टाण्ड् दिस् इस् देर् सिद्धान्त. ओके, तर्हि शाब्दबोधः कथं भवति नैयायिकमते? सो पचामि, सो केवलं पचामि इत्यनेन न भवति, अहम् इति प्रथमान्तपदमपि भवत्येव. सो तत्र पचामि अहम् इत्यनेन कर्ता बोध्यते. पचामि इति विक्लिप्तिरूपं फलं, व्यापारः प्रत्यधातुना बोध्यते, फलं व्यापारश्च. कृतिः प्रत्ययेन बोध्यते. कृतिः एकत्वसङ्ख्या वर्तमानकालश्च प्रत्ययार्थः, फलं व्यापारश्च धात्वर्थः, कर्ता प्रथमान्तपदार्थः. तत्र अहम् इति कर्तुः एव प्राधान्यम्. कृतिमान् अहम्, सो मदभिन्नः इति अहम् इत्येव प्रधानम्. सो प्रथमान्तपदार्थस्य प्राधान्यम्. सो कीदृशः अहम्? कृतिमान्. सो कृतेः कर्तरि अन्वयः. व्यापारानुकूलकृतिमान्, व्यापारस्य कृतौ अन्वयः. फलस्य व्यापारे, सो विक्लित्यनुकूलव्यापारानुकूलकृतिमान् अहम्. वर्तमानकालिकव्यापारानुकूल वर्तमानकालिक व्यापारानुकूल कृतिमान् अहम्. सो वर्तमानकाल आल्सो रिलेट्स् टु द कृति. एण्ड् एकत्वसङ्ख्यावच्छिन्नः अहम्, सो द एकत्वसङ्ख्या रिलेट्स् टु द कर्ता. कथं भवति शब्दबोधः? विक्लित्यनुकूल व्यापारानुकूल वर्तमानकालिक कृतिमान् एकत्वसङ्ख्यावच्छिन्नः अहम्. यदि चैत्रः पतति इत्यस्ति तर्हि चैत्रः इत्येवम्. सो इन्स्टेड् आफ् व्यापार और् भावना वी हाव् द प्रथमान्तपदार्थ एट् द एण्ड् एण्ड् आल् अदर् थिङ्ग्स् विल् रिलेट्. आल् अदर् एस् इन् ओन्ली टु, वन् इस् द कृति एण्ड् अदर् इस् द संख्या. ओके, सो एकत्वसङ्ख्यावच्छिन्नः अहम्, कृतिमान् अहम्. कृतौ व्यापारस्य कालस्य च अन्वयः, अतः व्यापारानुकूल वर्तमानकालिक कृतिः. व्यापारे फलस्य अन्वयः, सो विक्लित्यनुकूल व्यापारानुकूल वर्तमानकालिक कृतिमान् एकत्वसङ्ख्यावच्छिन्नः अहम् इति नैयायिकमते शाब्दबोधः. सो एवं मीमांसकमते व्यापारः धात्वर्थः अथवा प्रत्ययार्थः इत्येव भेदः, एण्ड् वेदर् द कर्ता इस् प्रत्ययार्थ. वैयाकरणमते व्यापारः धात्वर्थः, कर्ता प्रत्ययार्थः. मीमांसकमते भावना प्रत्ययार्थ, कर्ता आक्षेपात् लक्षणया लभ्यते इति. पदार्थानां परस्परसम्बन्धः समानः, भावनायाः अथवा व्यापारस्य प्राधान्यम् इत्यपि समानम्. नैयायिकमते तु सर्वं भिद्यते. फलं व्यापारः धात्वर्थः, कृतिः सङ्ख्याकालश्च तिङर्थः, कर्ता प्रथमान्तपदार्थः. सो द पदार्थ वेरीस् आल्सो द प्राधान्य, प्रथमान्तपदार्थस्य प्राधान्यम्, तत्र अन्येषाम् अन्वयः इति नैयायिकाः. ओके, सो दीस् आर् द त्री मेन् पूर्वपक्षस् दट् नागेश विल् रिजेक्ट् इन् हिस् ग्रन्थ. ओके, इन्क्लूडिङ्ग् द फस्ट् वन् दट् तत्र कर्तृकर्मणि प्रयोगे उभयत्रापि व्यापारस्य प्राधान्यम् इत्यंशः निराक्रियते. मीमांसकमते भावना प्रत्ययार्थः इत्यंशः निराक्रियते. कर्ता एव प्रत्ययार्थः, भावना आख्यातार्थः इति स्थाप्यते. सो नैयायिकमते पुनः कृतिः भिन्ना, इत्युक्ते व्यापारात् भिन्ना कृतिः प्रत्ययेन बोध्यते इत्यंशः निराक्रियते. karta api pratyartha eva iti sthapyate, vyaparasya eva pradhanyam shabda bodhe ityapi sthapyate. Okay, so these are actually the purva pakshas. So with these in mind, Nagesha sets out to give his take on the dhatvartha prakarana. Okay, prashnaha santiva, any questions with these? I wanted to start with the actual text today. Samayaha atitaha, maya anyatra gantavyam, because we started very late. I'm sorry for that. We will start with the actual text in the next class. Any questions?
Any homework on this, ma'am?
Sorry? Homework, yes. I mean, the homework will be for the same sentences. Gata varge yesham vakyanam vyakarana matanugunam shabda bodha likhitaha tesham eva vyakyanam mimamsakamate kidrishaha shabda bodha bhavati nayayikamate kidrishaha shabda bodha bhavati iti lekhitum prayatna kriyata. So just try out and see what will be the shabda bodha for the same sentences according to mimamsakas and according to the nayayikas. Okay. Matra sthagayamaha. Shivam natvahi nageshena anindya paramalaghu vayyakarana siddhanta kaumudiyam. Ah, shamyatam. Shivam natvahi nageshena anindya paramalaghu vayyakarana siddhanta manju shaisha viratyate. So when will this class be posted? I'll do it soon, possibly today or maximum tomorrow. Okay. So, because there's not much, I'll try to upload these today itself so that you'll have the time to catch up and work on it. Dhanyavadaha.